इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य दिल्ल्याम् अन्ताराष्ट्रिय आर्य महासम्मेलनं सम्बोधितवान्। सः अवदत् यत् आर्य समाजः एतादृशं संघटनं यत् निर्भीकतया भारतीयतायाः विषयं प्रकाशयति। प्रधानमन्त्री नरेन्द्र मोदी अद्य गुजरातस्य एकता नगरे आयोजिते राष्ट्रियैकता दिवस समारोहे विशाल जनसमूहं सम्बोधितवान्। अद्य भारत अमेरिका देशौ अग्रिम दशवर्षेभ्यः रक्षाक्षेत्रे सहकारार्थं प्रारूप समन्वये हस्ताक्षराणि कृतवन्तौ। अपि च अन्ताराष्ट्रिय विंशति प्रतिविंशतिः क्रिकेट क्रीडायां मेलबोर्न क्रिकेट क्रीडांगणे पञ्च क्रीडात्मक श्रृंखलायाः द्वितीये द्वन्द्वे अमेरिका दलेन भारत दलं चतुर्भिः स्तोभैः पराजितम्। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रोक्तवान् यत् लाला लाजपतराय सदृशाः बहवः स्वतन्त्रता सेनानिनः आर्यसमाजेन प्रेरणां सम्प्राप्य स्वतन्त्रता आन्दोलनाय आत्मानं न्ययोजयन्। दिल्ल्याम् अन्ताराष्ट्रिय आर्य महासम्मेलनं सम्बोधयन् श्रीमोदी अवदत् यत् महदिदं दौर्भाग्यं यत् बहुवर्षाणि यावत् आर्यसमाजः उचितं सम्मानं नैव प्राप्तवान्। सः अवदत् यत् आर्यसमाजः एतादृशं संघटनं यत् निर्भीकतया भारतीयतायाः विषयं प्रकाशयति। अत्रावसरे सः स्वामी दयानन्द सरस्वतीमपि श्रद्धाञ्जलिं समर्पितवान्।
ये अवसर उस महान परंपरा से जुड़ा है जिसने समाज सुधार की महान परंपरा को निरंतर आगे बढ़ाया, जिसने आजादी की लड़ाई में कितने ही सेनानियों को वैचारिक ऊर्जा दी। लाला लाजपत राय, हुतात्मा रामप्रसाद बिस्मिल, ऐसे कितने ही क्रांतिकारियों ने आर्य समाज से प्रेरणा लेकर आजादी की लड़ाई में अपना सर्वस्व समर्पित किया था।
प्रधानमन्त्री नरेन्द्र मोदी नागरिकान् एकीभूय विकसित भारतस्य स्वप्नं पूरयितुम् आह्वानम् अकरोत्। सरदार वल्लभ भाई पटेलस्य 50th जयन्त्यवसरे गुजरातस्य एकता नगरे आयोजिते राष्ट्रियैकता दिवस समारोहे विशाल जनसमूहं सम्बोधयन् प्रधानमन्त्री श्रीमोदी कोट्यधिक जनैः गृहीते एकतायाः शपथवचने राष्ट्रव्यापिनीं सहभागितां प्रकाशितवान्। सहैव राष्ट्रिय एकतां सुदृढां कर्तुं सामूहिक संकल्पं च समर्थितवान्। तेन सबलं प्रोक्तं यत् प्रत्येकेन नागरिकेण राष्ट्रविरोधि तत्त्वानां निराकरणं कर्तव्यम्। सः अवदत् यत् स्वतन्त्रतानन्तरं सरदार पटेलः एकं भारतं श्रेष्ठं भारतम् इत्याख्येन दृष्टिकोणेन 50th क्षेत्राणि एकीकृत्य असाध्य कार्यं समपादयत्।
देश भर में हो रही एकता दौड़ रन फॉर यूनिटी, कोटि कोटि भारतीयों का उत्साह हम नए भारत की संकल्प शक्ति को साथ साथ महसूस कर रहे हैं। अभी यहाँ जो कार्यक्रम हुए, जो अद्भुत प्रस्तुति हुई, उनमें भी अतीत की परंपरा थी, वर्तमान का श्रम और शौर्य था और भविष्य की सिद्धि की झलक भी थी।
प्रधानमन्त्रिणा प्रोक्तं यत् 14th सर्वकारेण नक्सलवादस्य तथा माओवादी आतंकवादस्य चोपरि कश्चन निर्णायक प्रहारः कृतः। तेनोदीरितं यत् 14th पूर्वं प्रायः 100 जनपदाः माओवादी गतिविधिभिः प्रभाविताः आसन्, किन्तु अद्य एषा संख्या केवलम् अवचीय 11 यावदेव वर्तते। सः प्रोक्तवान् यत् साम्प्रतं त्रीणि मण्डलानि एव नक्सलवादेन गंभीररूपेण प्रभावितानि सन्ति।
आज मैं सरदार पटेल के सानिध्य में एकता नगर की इस धरती से पूरे देश को भरोसा दिलाता हूँ, जब तक देश नक्सलवाद माओवाद आतंक से पूरी तरह मुक्त नहीं हो जाता, हम रुकने वाले नहीं है।
भारतस्य समृद्धाध्यात्मिक सांस्कृतिक न्यासं प्रकाशयन् श्रीमोदी। तस्य भाषात्मक विविधतायाः प्रशंसाम् अकरोत् तथैव एषा भारतस्य बृहत्तमासु शक्तिषु अन्यतमा इत्यपि अवोचत्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य प्रातः सरदार वल्लभ भाई पटेलस्य 50वीं जयन्त्यवसरे नवदिल्ल्याः पटेल चौक इत्याख्ये स्थाने स्थितायां तस्य प्रतिमायां पुष्पाञ्जलिं समर्पितवती। अत्रावसरे सा राष्ट्रियैकता दिवसावसरे देशवासिभ्यः अपि शुभकामनां प्रायच्छत्। गृहमन्त्री अमितशाहः अवदत् यत् सरदार पटेलः स्वतन्त्रतानन्तरं देशमेकीकर्तुम् अद्यतन भारतस्य निर्माणार्थम् अखण्ड राष्ट्रस्य कल्पनायाञ्च अप्रतिमं योगदानं निर्व्यूढवान्। राष्ट्रियैकता दिवसावसरे दिल्ल्याः मेजर ध्यानचन्द राष्ट्रिय क्रीडाङ्गणात् रन् फॉर यूनिटी एकतायै धावनम् इत्येतस्मै कार्यक्रमाय हरितध्वजं प्रदर्शयन् तेन एतत् प्रोदीरितम्। राष्ट्रिय एकता दिवसस्य अवसरे अद्य प्रातः काले मिजोरम राज्ये तथा देशस्य अन्येषु भागेषु च रन् फॉर यूनिटी इत्यसौ कार्यक्रमः आयोजितः। आइजोल नगरे यत्र प्रायः 400 प्रतिभागिनः भागम् अगृह्णन् तत्र मिजोरम राज्यस्य सर्वेषु जनपदेषु युगपत् एतादृश्यः स्पर्धाः समायोजिताः। रन् फॉर यूनिटी इत्यस्य आइजोल चरणस्य आयोजनं भारतीय क्रीडा प्राधिकरणेन क्रीडा युव सेवा विभागस्य सहयोगेन कृतम्। राष्ट्रिय एकता दिवसः सरदार वल्लभ भाई पटेलस्य 50वीं जयन्त्यवसरे आचर्यते। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। जब भारत अमेरिका देशो अग्रिम दशवर्षेभ्यः रक्षाक्षेत्रे सहकारार्थं प्रारूप समन्वये हस्ताक्षराणि कृतवन्तौ। रक्षामन्त्री राजनाथ सिंहः सामाजिक संजालीय सन्देशे अवदत् यत् सः मलेशिया देशस्य क्वालालम्पुर नगरे अमेरिका देशस्य युद्ध प्रमुखेन पीट हेगसेथ इत्यनेन सह मिलितवान्। अस्मिन् सम्मेलने पक्षद्वयेनापि रक्षा संरचनायाः हस्ताक्षरं कृतं, येन उभय पक्षयोः प्रबल रक्षा सहभागितां नवयुगस्य आरम्भः भविष्यति। राष्ट्रिय जनतांत्रिक संघटनेन अद्य 25वीं बिहार विधानसभा निर्वाचनाय संयुक्त संकल्पपत्रं घोषितम्। बिहारस्य मुख्यमन्त्रिणः नीतीशकुमारस्य, भाजपाध्यक्षस्य जेपी नड्डायाः, भाजपेति दलस्य बिहार निर्वाचन प्रभारिणः धर्मेन्द्र प्रधानस्य, अन्येषां एनडीए नेतृणां च उपस्थितौ संकल्पपत्रस्य विमोचनं समभवत्। भाजपेति दलस्य अध्यक्षः दिलीप जायसवालः उक्तवान् यत् एनडीए पक्षस्य घोषणापत्रस्य अर्थः अस्ति प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रत्याभूतिः, बिहारस्य मुख्यमन्त्रिणः नीतीशकुमारस्य विश्वासः च। एनडीए इत्यस्य घोषणापत्रे केजीतः पीजी पर्यन्तं निःशुल्क शिक्षां प्रदीयते इति घोषितम्। रक्षामन्त्री राजनाथसिंहः अधोरेखितवान् यत् भारत आसियान देशयोः सम्बन्धस्य केन्द्रबिन्दुः सामुद्रिक सुरक्षा अस्ति इति। सः आसियान सदस्य देशानां प्रशंसाम् अकरोत् यतः ते आसियान भारत सामुद्रिक अभ्यासस्य द्वितीये संस्करणे सहमतिं प्रकटितवन्तः। अद्य क्वालालम्पुर नगरे आसियान भारत रक्षामन्त्रिमण्डले अनौपचारिक सम्मेलने उद्घाटनावसरे रक्षामन्त्रिणा उक्तं यत् समुद्रमार्गाणां सुरक्षा देशस्य सर्वोच्च प्राथमिकता अस्ति इति। भारतीय ऋतुविभागेन अद्य उप हिमालय पश्चिम बंगालस्य, बिहारस्य, सिक्किमस्य, अरुणाचलप्रदेशस्य, गुजरातस्य च केषुचित् भागेषु अतिवृष्टेः पूर्वानुमानं कृतमस्ति। विभागेन तावत् पूर्वोत्तर भारते उत्तराखण्डस्य केषुचित् प्रदेशेषु, बिहारस्य उत्तरमण्डलेषु, पश्चिमबंगालस्य, गुजरातस्य, मध्यप्रदेशस्य, कोंकण गोवा प्रदेशयोः, कर्नाटकस्य, केरलस्य, लक्षद्वीपस्य, छत्तीसगढस्य च केषुचित् भागेषु लघुमध्यमवृष्टेः सम्भावना व्यक्तीकृता। अन्ताराष्ट्रिय 20-प्रति-20 क्रिकेट क्रीडायां मेलबोर्न क्रिकेट क्रीडाङ्गणे पञ्चक्रीडात्मक श्रृङ्खलायाः द्वितीये द्वन्द्वे अमेरिकादलेन भारतदलं 4 स्तोभैः पराजितम् इति वार्ताः।